So in 7.1, there are few words given. How we are going to use these words, that we will see below. Pashito. Mama chitra, mama mitram vidyalayam gachati. Tatra vidyalayam iti eka padaha, it is highlighted. If you see up, vidyalayaha, it is there as vidyalayaha, this is a pullinga shaptaha. But down, it shows as a vidyalayam, napumsakalinga shaptaha. But it is not napumsakalingam. We should not take it in that way. It is not napumsakalingam. It is used in karma padam, vidya vibhakti. So already we have seen shashti vibhakti. Shashti vibhakti we have already seen. Yetasya, tasya, dasharatasya, ramasya, those things we have seen. Here, the second case, that is sixth case, this is second case. Here, how it will come means, one sentence, when you construct any sentence, minimum, there will be three things. One is kartrupadam, second is karmapadam, third is kriyapadam. That is, saha patam patati. Saha is karta, kartrupadam, subject. Patati, kriyapadam, that we have seen, patati, patanti, patatu, patami, we have seen all methods. And the madhye kim asti, what is in the middle, that is called karmapadam. Karmapadam is the work, what we do. Saha vidyalayam gachati. Tatra vidyalayam eva karmapadam. That will always come in vidyalaya asti, but it will come as vidyalayam. That vibhakti will be in ekavachanam, it will come as im, vidyalayam. Pataha pulinga shaptaha, but we will say as patam patati. Apanaha, next, granthalaya asti, granthalayam gachati. Devalaya asti, devalayam gachati. Karyalaya, karyalayam gachati. Apanaha, apanam gachati. So, in pulinga shaptaha, im is coming. If you see in napumsakalinga shaptam, already im is there. So nothing will come. Railsthanakam, balakaha, railsthanakam gachati eva. Nothing, we are not adding anything. It just comes as it is. Next, chitramandiram. Aham chitramandiram gachami. Aham udhyanam gachami. The last word is pradashini. Ikaranta srilingam. There also we'll have aham pradashinim pashyami. So where this will come? In I used most of the examples as gachami. So it means that it will come only in gachami? Not like that. It will come in two places. When you are answering kim iti eka padamasti. When you prashnavakyam, question. It might be for your answer, for your question. Kim iti padam. And mostly kutra iti padam. Tatrapi agachati. Kim kutra. Kutra we have seen in saptami vibhakti. Gruhe balakaha asti. There also we have seen kutra. It will come in dvitiya vibhakti also. Kutra. Kim and kutra. Sandeham asti va? Any doubts?
Only when they use it, we will come to know.
So, now I gave the example. Saha vidyalayaha, balakaha vidyalayam gachati. Saha granthalayam gachati. Balakaha patam patati. Aham kshiram pibami. Aham karyam karomi. Balika griha patam karoti, homework. Griha pataha, pulinga shaptaha, griha patam karoti. Aham devam namami. Aham devam namami. So these are the basic words. Can you construct some words? I will give more example, but before that, whatever you understood, can you construct few words? Anubhagini Vartiva? Kaha vadati? One can answer. Start with one.
अहं कार्यालये गच्छामि.
हा, अहं कार्यालयं गच्छामि. सम्यक्. कार्यालयः, कार्यालयं गच्छामि.
हा, one doubt I have. स्त्रीलिङ्ग, स्त्रीलिङ्ग we use the same, is it?
मैम, अहं दूरदर्शनं पश्यामि.
हा, सम्यक्. दूरदर्शनं नपुंसकलिङ्गं, सो वि आर् नाट् एडिङ्ग् एनिथिङ्ग्. अहं दूरदर्शनं पश्यामि.
अहम् उद्यानं
गच्छामि.
अहम् अन्नं पचामि.
हा, सम्यक्. अहम् अन्नं पचामि. अहं पाकं पचामि. ऐ कुक् पाकम्. अन्नमपि सम्यक् एव. अन्नं पचामि.
अहं पूजां करोमि.
हा, सम्यक्. अहं पूजां करोमि. पूजा स्त्रीलिङ्गं. पूजां करोमि.
बालाः उद्यानवनं गच्छन्ति. केन् यू यूस् इट् लैक् दट्?
हा हा, बालाः उद्यानवनं गच्छन्ति. पश्यतु, हियर् you are not the karma padam is ekavachanam only, still udyanam udyanam eva. You can change kartru, kartru that is the subject, and the kriya can be plural or singular.
Singular.
That is independent. Karma padam is independent. First we will see karma padam ekavachanam, then we will go to bahuvachanam. First we will see ekavachanam only. So balaah vidyalayam gachanti. Samyak. Vidyalayam eva ekavachanam.
Mandiram gachami.
हा, अहं चित्रमन्दिरं गच्छामि. उत्तमम्.
बालिका पुस्तकं पठति.
हा, सम्यक्. बालिका पुस्तकं पठति. पुस्तकं नपुंसकलिङ्गं, सो वी आर् नाट् एडिङ्ग्.
केन् ऐ से अहं घटी पश्यामि.
हा, सम्यक्. अहं घटीं पश्यामि. करेक्ट्.
महिला ग्रन्थालयं गच्छति.
हा, महिला ग्रन्थालयं गच्छति. सम्यक्.
मे ऐ सङ्गीता भगिनी.
हा, वदतु.
गायकः गीतं गायति.
हा, गायकः गीतं गायति. सम्यक्. गीतमपि नपुंसकलिङ्गं. गीतं गायति.
धन्यवादः.
I think next let's go to the second level. Now you understood, and the words whatever you all have used, only with that the subject is either aham or balakah, third person uttama prathama purushah or uttama purushah. Now in the karma padam if I use any other word, for example, अम्बा माम् पाठयति. द मदर् इस् टीचिङ्ग् मी. अम्बा माम्. हौ माम् इस् कम्? अहम् इति एकपदमस्ति. अहम्. द मदर् इस् टीचिङ्ग् मी. अम्बा माम् पाठयति. अहं विल् बि माम्. लैक् देट् वाट् एवर् विल् कम् एस् वाट् एवर् विल् चेञ्ज् ऐल् जस्ट् शेर् यू समथिङ्ग्. You are able to see this?
Yes.
The word document?
Yes.
All of you able to see yes. The word document?
Yes.
Pashito, whatever comes, how it is getting changed. If when Saha comes, for example, if you see in shlokas, most of the shlokas, tam vande, aham tam vande, I bow to him, I bow to the god. First some shlokas will come, then the last usually it gets over with aham tam vande, I bow to him. Next saha isaha kam tam, yeshaha kam yetam, strilingam. If sa kam tam, एषाकम् एताम्. अहं माम्. भवान् भवतं. भवती भवतीम्. इष्टस्य नपुंसकलिङ्गम् इस् देर् इस् नो चेञ्ज्. पुस्तकम् पुस्तकमेव. Now I will try to give one example for each word, then it will be clear for you. First one I already told. Aham tam vande. I bow to him. Namaskaram karomi. I bow to him. Eshah etam is eshah balakah asti. Aham etam kshiram dadami. Mama balakah, mama putrah asti. Aham etam kshiram dadami. So second time I didn't use balakam dadami. That is also correct. मम पुत्रः अस्ति अहं पुत्रं क्षीरं ददामि अपि सम्यक् अहं तं क्षीरं ददामि अपि
नमस्कारम्
पश्यतु मम पुत्रः अस्ति इन् फस्ट् सेण्टेन्स् सुन्दर महोदय यु जायिन् नौ Can you go on mute, please?
Yes, yes, I should have joined the talk, but anyway, it doesn't
matter. Yeshah, mama putrah, yeshah, mama putrah. Aham, yetam, vadami, I tell to him.
They were all kind of wrong.
Sundar Mahodaya, I put you on mute. Can you please be on mute only? नेक्स्ट् सा मम पुत्री अस्ति अहं तां वदामि ऐ टेल् टु हर् अहं तां वदामि अथवा अहं तां क्षीरं ददामि ऐ गिव् मिल्क् टु हर् तां क्षीरं ददामि एषा मम पुत्री अहं एतां पुस्तकं ददामि ऐ गिव् बुक् टु हर् अनन्तरम् अहम् ऐ आल्रेडि टोल्ड् अहं मम पुत्री अस्ति एषा मां पुस्तकं ददाति शी गिव्स् टु मी एषा मां पुस्तकं ददाति नेक्स्ट् भवान् मध्यमपुरुषः सेकेण्ड् पर्सन् भवान् आगच्छतु अहं भवतं पुस्तकं ददामि ऐ गिव् बुक् टु यू अहं भवतं पुस्तकं ददामि महिला आगच्छति मम सखी मै फ्रेण्ड् इस् कमिङ्ग् होम् भवती आगच्छतु स्वागतम् अहं भवतीं क्षीरं ददामि ऐ गिव् मिल्क् टु यू भवतीं क्षीरं ददामि अस्तु वा सर् क्लियर् केन् यु गिव् सम् एक्साम्पल् यूसिङ्ग् दीस् वर्ड्स् Or if you have doubt, you can unmute and ask.
Ma'am, I have a doubt.
One at a time. First, Bhagini.
Bhagini, can you give some more examples for mom?
Mom, it is there in that sambhashanam, but I will give you. Aham, bhavati, duravani asti, bhavati ahaste. You have a phone. Mam darshayatu, show the phone to me. Mam duravani darshayatu. Pustakam asti, bhavatyah haste. Book is in your hand. Bhavatyah haste, pustakam asti. Mam dadatu, give it to me. Mam dadatu, mam darshayatu. Mama bubuksha asti, I am hungry. Mam bhojanam dadatu. Give food to me. Mam क्षीरं ददातु मां पुस्तकं ददातु अहं विल् चेञ्ज् अस् माम्
मां सो वेर् एवर् मी कम्स् इट् विल् बिकम् माम् इस् इट्
यस्
ओके
वेर् एवर् मी बेसिकलि पश्यतु अहम् इस् मै मम न अहम् अहं सङ्गीता ऐ एम् अहम् इस् ऐ एम् मम नाम सङ्गीता मै मम इस् मै माम् इस् टु मी
गाट् इट् मेम् थेङ्क् यू
नेक्स्ट् समन् एल्स् वास् आस्किङ्ग्
या मेम्
शर्मिला भगिनी वा
रमा भगिनी
हा रमा भगिनी वदतु
अहं भवतां पुस्तकं ददातु वा
ददामि अहं
ददामि ओके
अहं ऐ गिव् इट् टु यू अहं भवतां पुस्तकं ददामि
धन्यवादः
हा
ददातु ददामि
ददातु ददामि आर् नाट् केसस् दे आर् क्रियापदं क्रियापदं वेन् ऐ टाक् डैरेक्ट्लि अहं भवतीं पुस्तकं ददामि भवती मां पुस्तकं ददातु यु गिव् इट् टु मी that is not case this kriya pada
but which dadatu kriya pad you have to use both case fourth chaturthi vibhakti dvitiya chaturthi dvitiya chaturthi
dvitiya yeah this is dvitiya vibhakti But dadatu is nothing to do with anything else. What is the case? Sundar Magodaya, I put you on mute. Don't, please don't go on unmute. Haan, why is it beginning? You're asking something?
Is this Tam? Etam is the Dvitiya or Chaturthi?
These are all Dvitiya Vibhakti.
Okay.
Astu. Agre Gachamaha. We'll do this exercise, then you will understand. Pashito. There is a Sambhashanam. Pita. Asti. Putraha. Asti. There is a conversation between Pita and Putraha. पुत्रः पाठं पठतु पाठः अस्ति तत्र पाठं पठतु पुत्रः वदति अहं पाठं पठितुं न शक्नोमि ऐ एम् नाट् एबल् टु रीड् पाठं पठितुं न शक्नोमि किमर्थं मीन्स् वै इति पिता पृच्छति अहं विद्यालयं न गतवान् तत्र विद्यालयः विद्यालयं न गतवान् ऐ डिन्ट् गो टु स्कूल् पिता वदति भवतु सोके भवतु अस्तु आलस्य अहं भवन्तं पाठयामि ऐ विल् टीच् यू पश्यतु अत्र वर्ड् डाक्युमेण्ट् मध्ये अस्ति भवान् भवतम् अहं भवतं पाठयामि पुत्रः सत्यं भवान् मां पाठयति You will teach me? Pita vadati. Aam patayami. Putri vadati. Idanim pita putraha sambhashanam. Idanim putri vadati. Daughter. Tata. Tata also pita eva. Janakaha, pita, tata, sarvam pita eva. Father. Aham api patayatu. Aham iti bracket mandi asti. Api patayatu. Tatra maam api patayatu. पिता वदति अस्तु भवतीम् अपि पाठयामि भवतीम् अपि पाठयामि पुत्रः पृच्छति कदा पाठयति वेन् विल् यु टीच् पिता वदति इदानीं भवतं पाठयामि ऐ विल् टीच् यू नौ भवतं पुल्लिङ्गशतः पुत्रः वदति अनुजा स्त्रीलिङ्गपदं सा इति आगच्छति अनुजां कदा पाठयति अनुजां कदा पाठ जस्ट् इम् दट्स् आल् अनुजां कदा पाठयति वेन् विल् यु टीच् टु हर् अनुजा सिस्टर् यङ्गर् सिस्टर् अनुजा अग्रजा एल्डर् सिस्टर् पिता वदति सायङ्काले पाठयामि सा अस्ति तत्र अतः तां सायङ्काले पाठयामि तां वदतु कः पाठः पाठयामि कः पाठः इति अस्ति it will be also come in dvitiya vibhakti. Kim patam patayami vadatu, kim patam patayami putraha vadati, yeshaha patah, yeshaha agachati chit yetam iti agachati, yetam patam patayatu, this lesson. Pita vadati sarve patah iti asti, tatra bahuvachana prayogah. Rachana bhagini, kit unmute karotu. Tatra bahuvachana prayogah, sarvan iti agachati, sarve sarvan. Etat, only that bahuvachanam I will teach you later once we understood this, complete this ekavachanam. Idanim sandeham asti va prichatu. Go one at a time, unmute putva prichatu. Have any doubt in this conversation, just ask.
Bhagini kaha
Vadatu.
Kaha plural, I mean
kim
kaha patah,
kim kaha patah, kim patah, kim patam.
Thank you.
Bhagini, that Anuja, can you explain that again? Anujaha.
Anujam. In pulling a shabda, mala, Anuja, balika, just simply im will come. Anujam. Malam. Kata. Pita katam vadati. Kata asti katam. He tells the story. Katam vadati.
Kaha pataha, this becomes kampatam, is it not? It how it
na,
is kim
kampatam api samyak eva, kim patam api samyak eva.
Astu
ma. Kampataha api samyak. But in general we don't use kam, just it's a grammatical error only, but in general we say kim pataha. Parantu kam samyak. Utam. Anyakimapi prashnam?
It is kim patam bhagini?
Kim patam atava kam patam? Both are right.
Bhagini, ma will have halam. Ma will have halam.
Bhagini, your voice is feeble, I couldn't hear.
Down one line will be there, halan.
The last line?
For ma. Kim, bhavatim, anujam.
Idanim bhavatam patayami. Then anujam kada patayati. Anujam.
Jam. Thank you.
Anujam, malam, katam. Strilinga saptam. It will just get im at the end.
When the last line, what does Pita say? Sarve pataha. Patayami. What is that?
I will teach later. That bahuvachanam. First let us understand the ekavachanam. Then I will teach that.
Bhagini?
Vadatu.
Yes, I have a question regarding the writing of it. And now, for example, when... sometimes put a to say aham, and sometimes I see it's written as a ha ma and
samyak. Good question. I just wanted, that's why if you see in my word document, I made im everywhere. Actually, there is a pattern of writing. In the first class, first presentation itself, you have seen. I'll just repeat it. The last, when im will come, it's a common question which everyone will have. Dhanyavad for bringing it here. When we will put ma, im, and when we will put the dot is usually anuswara. The name of the dot is anuswara. The next sentence, if the next sentence starts with a swara, then you have to put ma only, that im, full im only. If it is a vyanjana, then you can put im dot. For example, अहं गच्छामि. तत्र ग इस् अ व्यञ्जनम्, इट् इस् नाट् अ स्वरा. होप् यु आल् नो दट् अ टु अह ऐ इ आर् स्वराज् एण्ड् क टु ह क क ग, दोस् आल् आर् व्यञ्जना. इफ् अहं गच्छामि इस् कमिङ्ग् द गच्छामि ग इस् अ ग इस् अ व्यञ्जना. सो यु केन् पुट् अ ह इम् डाट् इस् फैन्. अहम् आगच्छामि, इफ् यु पुट् अहम् आगच्छामि देन् आ इस् अ स्वरा. आगच्छामि आ इस् अ स्वरा. देर् यु शुड् नाट् पुट् डाट्, आह डाट् यु शुड् नाट् पुट्, यु हेव् टु पुट् फुल् इन्. सो द नेक्स्ट् वर्ड् is coming as swaras, then you should put full im. If it is vyanjanas, then you can put the dot. Shobha Bhagini, avagatavati va? You understood?
Yes, yes, yes. So just one more question. So if vyanjana, then we have a choice, is it? We can put either the dot.
Exactly, or we have a choice.
We have a choice, okay. Both are correct, is it?
Both are correct.
Both, yeah, thank you.
अन्यत् किमपि प्रश्नः अस्ति वा
भगिनी? ऐ वाण्ट् टु आस्क् हौ टु यूस् ताम्. ताम्
ताम् सा पुल्लिङ्गशब्दं. फार् एक्साम्पल् सा उत्पीठिका, ताम् आनयतु. दिस् इस् अ टेबल् दट् क्षम्यतां, सा दट् इस् अ टेबल्. Bring that here. Huh? Or you can keep it as mala. The mala janati. Kanta abarana. It's abarana. Mala. Sa mala. Yetam dadatu. Give that to me. Yetam dadatu. Sa. Tam. Sa will change as tam. Yesa is coming. All of you can go on mute, please. Somebody is unmuting continuously, but I don't see they are talking also. Asso, huh. Yesha, Yesha Balika. Yetam Ahvayatu, call her. This is a girl. एताम् आह्वयतु. ताम् एताम् वेन् सा अण्ड् एषा इस् कमिङ्ग्, ताम् एताम्. अस्तु वा, गाट् इट् भगिनि?
ओके ओके,
हा अस्तु, अग्रे गच्छामः. एनी अदर् डौट् आर् केन् वि मूव्? अस्तु, पश्यतु. ऐ विल् शो यु वन् मोर् टेबल्. दिस् विल् बि ईज़ि फर् रैट् आन्सर् मोस्ट् आफ़् युर् क्वशन्. विभक्ति, वाट् इस् विभक्तिप्रयोगः? विभक्तिप्रयोगः बेसिकलि इट्स् काल्ड् अस् केसस्. इन् केसस् प्रथमा विभक्ति वि नो रामशब्दः. यु आर् एबल् टु सी दिस् टेबल्? दृश्यते वा? हा अस्तु,
यस्.
प्रथमा विभक्ति, वाट् इस् प्रथमा विभक्ति? इस् नेमिङ्ग्. रामः गच्छति, बालकः पश्यति. सो दट् इस् द प्रथमा विभक्ति. रामः, बालकः, पुत्रः, दट् इस् काल्ड् प्रथमा. जस्ट् नेमिङ्ग् वर्ड्. देवः अस्मान् रक्षति, तत्र देवः इति अस्ति, देवः प्रथमा विभक्ति. वाट् वि आर् सीङ्ग् नौ इस् द्वितीया विभक्ति, कर्मपदं. द्वितीया इस् बेसिकलि नोन् अस् कर्मपदम्. द मीनिङ्ग् इट् इस् गिवन् अस् टु, though not everywhere too will not suit, but in general, because the Sanskrit to English translation is not, it's a mere translation, not exact one. So aham devam namami, I bow to the god. Here it suits, but in some places it will not suit. It's okay, commonly take it as two. Dvitiya vibhakti karma prayoga, karma padam. Aham devam namami. And Shashti Vibhakti, we have already seen, Shashti, sixth case. Sambandha Vibhakti, when you have any possession or relationship, Dasharathasya Putraha Ramaha. So, Devasya Kirtihi, adavitiya. So like that, any relationship comes, then we use Shashti Vibhakti. So now we are seeing the second case, Dvitiya Vibhakti Karma Padam. Any doubts here? Let's not go to any other Vibhakti. If you have any doubt related to Dvitiya Vibhakti, then you can ask. Ask. No doubts. Uttam. So, Agre Gachamah. Here, one picture is given. Vasati Mandiram means hotel, residential, where you stay. There, one Sambhashanam is given. So before going into the Sambhashanam, I'll just explain one thing. Purataha, the table, Purataha, Vamataha, Upari, Prishtataha, Dakshinataha, Adaha asti. Sarve unmute kritva. If there are no disturbance around you, you can unmute and just repeat with me. If there are noise around you, then don't, please don't unmute. Just be on mute. Purataha.
Purataha.
Prishtataha.
Prishtataha.
Vamataha. Dakshinataha.
Dakshinataha.
Upari.
Upari.
Adaha.
Adaha.
Adaha. Punaha vadami. Purataha.
Purataha.
Prishtataha.
Prishtataha.
Vamataha.
Vamataha.
Dakshinataha.
Dakshinataha.
Upari.
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 Adaha.
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 The meaning, Purataha, now you all can go on mute. Purataha means front. Purataha, front. Prishtataha, back. Backside. Vamataha, left. Dakshinataha, right. Upari, up. Adaha, down. Punaha vadami. Purataha, front. Prishtataha, back. Vamataha, left. Dakshinataha, right. Upari, up. Adaha, down. Now, let us go to the Sambhashanam. Ahameva Patami, Ratanam. Saha Keshavaha. Keshavasya Purataha, Shakataha Asti. Saha Keshavaha. He is Keshavaha. Keshavasya Purataha. Atra, when you tell this Purataha, Prishtataha, it is relative, relation to a person, related to that person. Like my, his, her. So it is Samanda Vibhakti, Shashti, which we have seen here. Shashti Vibhakti. Sixth case. Samanda Vibhakti of his Devasya. Iti. Smaratu. That's Smaratu. We are using Shashti Vibhakti here. Keshavasya Purataha Shakataha. Shakataha is that cart, push cart. Keshavasya Purataha Shakataha asti. In front of Keshavaha, Shakataha asti. Tasya Prishtataha Vasati Mandiram asti. Hotel. Tasya Purataha. Saha Tasya. Saha Shashti Vibhakti is Tasya. Prishtataha, backside, Vasati Mandiram asti. Tasya Dakshinataha Devalayaha asti. His right side, Devalayaha, temple. Tasya Vamataha Vrikshaha asti. Left to him. Devalaya Vrikshaha asti. Tree. Devalayasya Upari Kalashaha asti. Kalasam. Kalashaha asti. Devalayasya Upari. Shakatasya Adaha Shunakaha asti. Shakataha Pushkar below. Adaha Shunakaha dog asti. Purataha Prishtataha Dakshinataha Vamataha Upari Adaha. Whenever you use this, when we relate that to something else, then you should use Shashti Vibhakti. Here we have used only Pullinga Shashti Vibhakti. First we will use Pullinga or Napumsakalinga Shashti Vibhakti. Then we can go to Trilingam. For example, I will tell that. Balakah asti. Balakasya puratah vidyalayah asti. Balakasya prishtatah. Tasya mitrah asti, friend. Tasya mitrah asti. Balakasya vamatah, let's say. Mukhya margah asti, main road. Mukhya margah asti, his left side. Balakasya vamatah mukhya margah asti. Balakasya dakshinatah denuh asti, kau, denuh asti. Balakasya adah down, adah bhumihi asti. He stands on the floor, bhumihi asti. Balakasya upari, akashah asti. He is on the main road. So, Balakasya upari akashah asti. Here you can see Balakasya upari griham asti, Balakasya upari suryah asti. Anything, we can use anything. Prayatanam kurvanti va? Eka eka vakya madati va? Rama bhagini praramam karoto. Vadatu, eka vakyam vadatu, mute kurvantu anantaram. Ha. Rama bhagini praramam karatu.
Aam bhagini. Utpitikayam upari chashaka asti.
Chashaka. First, it's okay. Utpitikayam upari. Atra, utpitikayaha upari. But let's go with Pullinga. If you are comfortable, then you can use Trilinga Shaptaha. Sitayah, Utpitikayah, Malayah, Yah, Agachati, Trilinga Pade. If you are comfortable, use Trilingam. Or Pullingam is fine. Madhurika Bhagini.
Mama Adaha Asanda Asti.
Mama Adaha Asanda Asti. Lakshmi Bhagini. Anubhagini?
Ramaha Dakshinataha Sita Asti.
Ramasya. His
Ramasya Dakshinataha Sita Asti.
Asana. Sharmila Bhagini.
Vidyalayasya Vamataha Devalayaha Asti.
Sami. Vijaya Bhagini.
Devalayasya Vamatah Vidyalayam Vidyalayah Asti.
Sujaya Bhagini.
Mantapasya Dakshinatah Grihe Asti.
Griham Asti.
Griham Asti.
Shastri Mahodaya Vadati Va? Kaushalya Bhagini,
Vrikshasya upari phalam asti.
Vrikshasya upari phalam asti. Arvind Mahodaya.
Chatrasya vamatah devalaya asti.
Chatrasya vamatah devalaya asti. Jyoti Bhagini.
Pustakasya upari lekhanim asti.
Lekhani eva, lekhani asti.
Lekhani asti.
Jyoti Bhagini, bhavata. Sheetal Bhagini.
Mama Vamada Pustakam asti.
Same. Mama Vamata. Uma Bhagini.
Mama Upari Vyajanam asti.
Samyak. Mama upari vyajanam asti. Shriti Bhagini. Astu. Shobha Bhagini.
मम पुरतः पुस्तकम् अस्ति.
मम पुरतः पुस्तकम् अस्ति. सम्यक्. लक्ष्मी पश्यतु, देयर इस् वन् पिक्चर् जस्ट् हूस् दाट् केन् यू मूव् उमा भगिनी. पश्यतु, गृहम् अस्ति. सी द पिक्चर् एण्ड् टेल् विच् इस् करेक्ट् विच् इस् राङ्ग्. गृहस्य पुरतः वृक्षः अस्ति इस् रैट्. गृहस्य वामतः उद्यानम् अस्ति. गृहस्य वामतः, लेफ्ट् सैड्, वामतः, तत्र किमपि नास्ति. अतः उद्यानम् अस्ति इस् राङ्ग्. बालकः वृक्षस्य उपरि अस्ति. आं वा न वा?
न, अधः अस्ति. अधः
बालकः, क्षम्यतां, वानरः वृक्षस्य उपरि अस्ति. वानरः अस्ति, बालकः नास्ति. वृक्षस्य अधः वृद्धः अस्ति.
वृक्षस्य अधः कुक्कुटः अस्ति.
कुक्कुटः अस्ति, बालकः अपि अस्ति. गृहस्य पृष्ठतः मार्गः अस्ति. गृहस्य पृष्ठतः, बेक् सैड्.
गृहस्य पृष्ठतः
न किमस्ति?
गृहम् अस्ति.
गृहस्य पृष्ठतः गृहम् अस्ति अथवा पर्वतः अपि अस्ति.
पर्वतः.
बालकस्य हस्ते नारिकेलफलम् अस्ति. दण्डः अस्ति.
दण्डम् अस्ति,
दण्डः अस्ति. तत्र कर्मपदं यदा कर्म प्रचलति, सम् वर्क् इस् गोयिङ्ग्, देन् यू यूस् दण्डम्. अत्र किमपि नास्ति, जस्ट् इट् इस् अस्ति. अस्ति इस् इट् इस् देर्, नो वर्क् इस् गोयिङ्ग्, सो दण्डः एव. दण्डः, दण्डः. अहं पाठं पठामि, ऐ रीड् द बुक्, देर् सम् वर्क् इस् गोयिङ्ग् आन्. वेन् अस्ति कम्स्, कर्मपदं विल् नाट् कम्. देर् इस् नो कर्म तत्र.
ओके.
पुस्तकमस्ति, तत् नपुंसकलिङ्गं, सो इन् इस् कमिङ्ग्, नो चेञ्ज्. तत्र पुस्तकमस्ति, तत्र माला अस्ति, तत्र उत्पीठिका अस्ति. अस्ति अस्ति एव, इट्स् जस्ट् देर्. वाक्यानि लिखन्तु. ऐ विल् आल्सो सेण्ड् इट् इन् वाट्सप् सम् एक्साम्पल्. इदानीं वदतु, बालकः कुत्र अस्ति? बालकः बहिः अस्ति. बहिः औट्सैड्, अन्तः इन्सैड्. इन्सैड् औट्सैड्, बहिः अन्तः. बालकः बहिः अस्ति. बालिका कुत्र अस्ति? बालिका अन्तः अस्ति, शी इस् इन्सैड्. मार्जालः कुत्र अस्ति? बहिः अस्ति मार्जालः. बहिः अस्ति, न क्षम्यतां, मार्जालः केट्
अन्तः अस्ति.
अन्तः अस्ति मार्जालः. शुनकः कुत्र अस्ति?
शुनकः बहिः अस्ति.
बहिः अस्ति. इदानीम् अन्तः किं किम् अस्ति? बहिः किं किम् अस्ति? गृहस्य अन्तः, इन्सैड् द हौस्.
गृहस्य अन्तः युवती अणि मार्जारः. बहिः युवकः अपि कुक्कुरः.
कुक्कुरः, शुनकः, द्वयमपि सम्यक्. आल्वेस् कम्स् एट् द एण्ड्. गृहस्य अन्तः बालिका, मार्जालः च सन्ति. सन्ति आगच्छति. अस्तु, अस्माकं गृहस्य अन्तः किं किम् अस्ति? एक एक वाक्यं वदतु. अन्तः किं किम् अस्ति? पूर्णवाक्यं प्रारम्भं करोतु. कोऽपि प्रारम्भं करोतु. एनिवन्,
केन् यु रिपीट् द क्वश्चन्?
अस्माकम् अवर्स्. अस्तु, भवत्याः गृहस्य अन्तः किं किम् अस्ति? भवत्याः गृहस्य अन्तः किं किम् अस्ति? एकवाक्यं वदतु.
मम गृहस्य अन्तः फ्रिज् अस्ति.
शीतकं. शीतकं फ्रिज्.
वाट् इस् वाट् इस् दट् फ्रिज्?
शीतकं. शीतकं. अन्यः अन्य कोऽपि.
मम गृहस्य अन्तः अहं च
अस्मि.
मम टु से ऐ एण्ड् मै हस्बेण्ड्. हौ शुड् ऐ
अहं मम पति च सन्ति.
अहं मम पति च सन्ति.
मम गृहस्य अन्तः पूजागृहं शयनगृहं च सन्ति.
सन्ति. कौशल्या भगव. अन्य एकवाक्यं वदति चेत् म्यूट् करोतु. एक एकवाक्यं पर्याप्तं. वदन्तु. अन्य शोभा भगिनी, श्रीति भगिनी.
मम गृहस्य मम पतिश्च पुत्र सन्ति.
मम पति मम पुत्रः च सन्ति.
मम गृहस्य अन्तः मम सहोदरः माता च सन्ति.
कुटुम्बः परिवारः. कुटुम्बः परिवारः.
मम गृहस्य अन्तः परिवारः सन्ति.
मम परिवारः सन्ति.
सन्ति और् परिवारः अस्ति. बिकास् परिवारः इस् अ सिङ्गुलर् सेन्स्.
परन्तु तत्र परिवारः, वाट् इस् द मीनिङ्ग् आफ् परिवारः? ग्रूप् आफ् पीपल्. सन्ति अपि सम्यक्, अस्ति अपि सम्यक्.
ओके.
गणः, वेन् यु सी गणः, गणः इस् अ ग्रूप् आफ् पीपल्. सो इफ् यु सी गणः एकवचनं, वन् ग्रूप्, देन् अस्ति अपि सम्यक्. बट् इन्सैड् द ग्रूप् देर् आर् मेनि पीपल् आर् क्रियेटिङ्ग् अ ग्रूप्. तत्र सन्ति अपि सम्यक्, अस्ति अपि सम्यक्.
ओके, थेङ्क्
यु. इन् इङ्ग्लिश् यु यूस् एकवचनं, देट् इस् वै.
अस्तु. अन्यत् नेक्स्ट् पिक्चर् नेक्स्ट् वन्. देर् इस् अ सम्भाषणं इन् अ बस् स्टाण्ड्. लोकयानस्थानकं, स्थानकं रैल् स्थानकं. लोकयानस्थानकम् इस् बस् स्टाण्ड्, रैल्वे स्टेशन् स्थानकं. तत्र पुत्रः अस्ति, पिता अस्ति, सम्भाषणं कुर्वन्ति. सम्भाषणम् अरविन्द् महोदय, अनन्तरं शोभा भगिनी, श्रीति भगिनी पठन्तु एकैकवाक्यम्.
एतत् लोकयानं कुतः आगतं?
मैसूरतः.
एका पठतु. एनिवन्
आगतम्.
नेक्स्ट्.
इतः कुत्र गच्छति?
अरविन्द् महोदय.
इतः मैसूर गच्छति.
ततः कदा आगमिष्यति?
ततः श्वः आगमिष्यति.
एते जनाः किं कुर्वन्ति?
एते इतस्ततः सञ्चरन्ति.
सञ्चरन्ति. अस्तु, पश्यति. अत्र किं किं वाक्यं मुख्यम् अस्ति? if you want to see the construction of the sentence, I will explain later. But what are the words they have used? The bold letters. Itaha, tataha, tataha, kutaha. So it is basically the word kutaha is where, from where. Kutaha is from where. Kutra, you know, kutrataha, from where. Kutrataha is shortly known as kutaha. Kutra is where. Kutrataha is from where. So itaha, from here. Tataha, from there. Kutaha, from where. Taha is generally from. Itastataha, here and there. Itastataha. Sancharanti, they just roam around. So idanim pashyamaha. Etat lokayanam kutaha agatam. Tatra kimartam agatam iti prayogamasti. Lokayanam napumsakalingam. So agatam api napumsakalinge bhavati. Yada bhutakalah, past tense agachati. Tatra agataha pullingashaktaha. Agata strilingam. Agatam agachati asti. Agatam agata agataha agata agatam iti agachati. Lingabedam asti tatra. Mysuru taha agatam. From Mysuru it is coming. Mysuru taha. Itaha kutra gachati. From here, where it is going. Itaha Mysuru gachati. Tataha kada agamishyati. From there, when it comes back. Agamishyati bhavishyat kalam. Agamishyati. Future. Tataha shvaga agamishyati. From there, tomorrow it will come. Yete janaha kim kurvanti. These people are what these people are doing. Yete itastataha sancharanti. They roam here and there. They roam around. Etateva sambhashanam. Taha iti prayogaha asti. Atra pashyatu. Taha prayogaha. Panchami vibhakti. Aat iti prayogaha asti. Taha iti prayogaha asti.
कक्षा चलति वा मां न श्रूयते
हलो
हलो श्रूयते
सीम्स लाइक संगीता भगिनी हैज गॉट ड्रॉप्ड
Yeah, I think so. No sound.
She has left.
No, she's 7:50. There. Oh, she.
But no response.
Not able she's to listen. There. She's there. She's there. Yeah. Not able to listen. Usually this happens at the end of the class.
Any of you attend any other class during the week? Hello?
I'm not attending any class. Sujia.
Hello.
Hi. This is Jyoti here. I attend my Veena classes.
No, about this.